भरतः भ्रातरं ऐत् तं च अब्रवीत् अस्माकं पिता दशरथः मृतः, अहं तु राज्यं मात्रा अर्थितः अपि न लभे, त्वं हि युवराजः आसीः, ततः राज्यं लभस्व इति। रामः तु प्रति अवदत्, अयोध्यां पुनः इह, तत्र च नृपः भ्रातुः अर्थे हेधि, अहं हि वने तिष्ठामि जानक्या सह इति।